शशी पातु शिरोदेशम् फालम् पातु कलानिधिः चक्षुषी चन्द्रमाः पातु श्रुतिम् पातु कलात्मकः घ्राणम् पक्षकरः पातु मुखम् कुमुदबान्धवः सोमः करोतु मे पातु स्कन्धौ पातु सुधात्मकः गुरो मे जनिदम् पातु मध्यम् पातु निशाकरः कटिम् सुधाकरः पातु पातुरुषशलाञ्जनः मृगाङ्गोजानुली पातु जङ्घे पात्वमृताभिरः पादौ हिमकरः पातु पातु चन्द्रोऽखिलम् वपुः एतद्धिकवचम् पुण्यम् भुक्तिमुक्तिप्रदायकम् यः पठेत् शृणुयात्वापि सर्वत्र विजयी भवेत्।